एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतस्य आन्दोलनस्य क्रमे जातायाः क्षतेः मूल्याङ्कनम् विधातुम् सार्वजनिक संरचनायाः पुनर्निर्माणस्य योजनाम् प्रस्तोतुम् च संघटितायाः समितेः कार्यावधिम् 30 दिनानि वर्धयितुम् निर्णीतमस्ति। परैह उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् पूर्वेद्युः सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च जगदीश खरेलः आगामिनः पौषमासस्य द्वितीया दिवसात् चतुर्थम् दिवसम् यावद् भारतस्य नवदेहलीस्थाने आयोक्ष्यमाणे विश्वस्वास्थ्य संघटन सम्बद्धे उच्चस्तरीये कार्यक्रमे सहभागितायै स्वास्थ्य जनसंख्या मन्त्रिणे स्वीकृतिम् प्रदातुम् निर्णीतमस्तीति च असूचयत्। एवमेव उपवेशेन प्रधान न्यायाधीशस्य सर्वोच्च न्यायालयस्य न्यायाधीशानाम् च चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य पारिश्रमिक सौविध्य सेवा सम्बद्धाधिनियमस्य प्रथमायाम् अनुसूच्याम् परिवर्तनम् विधातुम् निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। उपवेशेन आगामिनः माघ मासस्य प्रथम दिवसात् एकवारम् पञ्चलक्ष्याधिक मूल्यस्य सेवायाः सम्पादनम् वस्तुनो विक्रयणम् च वा अनिवार्यरूपेण वित्तीय संस्थायाः कोषागारस्य वा माध्यमेनैव विधातुम् निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। गृहमन्त्री ओम प्रकाश आर्यालः निगदति सर्वकारस्य दायित्वम् निर्वाचनस्य सम्पादनम् वर्तते। य धनगढ़ी नगरे सुदूरपश्चिम प्रदेश स्तरीयां सुरक्षा गोष्ठीं सम्बोधयन् गृहमन्त्री अरियालः सर्वकारः निर्वाचनस्य सम्पादनाय सक्रियेण प्रवर्तितोऽस्तीति प्रावोचत्। असौ निर्वाचनम् निष्पक्षम् भयरहितम् शान्तिपूर्ण वातावरणे सम्पादयितुम् सर्वकारः प्रतिबद्धोऽस्तीति चर्चयन् अगदत् निर्वाचनस्य वातावरणस्य निर्माणाय प्रदेश सर्वकारस्य भूमिका महत्वपूर्णा वर्तते। तदवसरे गृहमन्त्रिणा अरियालेन व्यवस्थाम् सुदृढाम् विधाय निर्वाचन सुरक्षा रणनीतिम् निर्मातुम् अन्तर्गतस्य निकायाः निर्दिष्टाः आसन्। तदवसरे गृहमन्त्रिणा आर्यालेन विशेषाभियानम् सञ्चाल्य लुण्ठितानाम् शस्त्रास्त्राणाम् प्रत्यावर्तनस्य कार्यम् विधीयमानम् अस्तीति च संसूचितम् आसीत्। राष्ट्रिय सभायाः विषयगत समितौ पूर्ववर्तिना सर्वकारेण आनीतस्य चलचित्र विधेयकस्य अग्रेवर्धनस्य विषये सहमतिः धृता वर्तते। विधायन व्यवस्थापन समितेः ह्यस्तनोपवेशे सर्वकारस्य सांसदानाम् सम्बद्ध पक्षाणाम् च विषयेऽस्मिन् विमर्शनस्य पश्चात् विधेयके चलचित्र क्षेत्रस्य आवश्यक विषयान् संवर्ध्य संशोधनेन सहितम् अग्रेवर्धयितुम् सहमतिः धृता वर्तते। उपवेशे सर्वकारस्य पक्षतः सहभागिना संचार सूचना प्रविधि मन्त्रिणा जगदीश खरेलेन विधेयके संशोधनस्य प्रावधानस्य विद्यमानतायाः दशायाम् सर्वकारः विधेयकस्य प्रत्यावर्तनस्य पक्षे नास्तीति कथनस्य पश्चात् चलचित्रकर्मिणः निर्मातृसंघ अन्य सम्बद्ध पक्षाश्चापि विधेयकस्य संशोधनस्य पक्षे दृष्टाः वर्तन्ते। अर्थमन्त्रिणः रामेश्वर खनालस्य निर्यात व्यवसायी महासंघेन निर्यातानुदानम् अवरूद्धमस्तीति उक्त्वा ध्यानाकर्षणम् कारितम् वर्तते। महासंघस्य अध्यक्षस्य गोविन्द प्रसाद घिमिरेविदस्य नेतृत्वस्य समूहेन पूर्वेद्युः अर्थमन्त्रिणे खनालाय निर्यातस्य अनुदानस्य निरोधनस्य विषये निर्यातक्षेत्रे दृष्टानाम् समस्यानाम् विषयेष् च ध्यानाकर्षणम् कारितम् वर्तते। महासंघेन निर्यातानुदानस्य अवरोधस्य अवस्थायाः प्राविधिक प्राशासनिकावरोधस्य निर्यात प्रवर्धनेन सहसम्बद्धानाम् नीतिगत समस्यानाम् च विषयाणाम् समाधानाय अर्थमन्त्री अनुरुद्धो वर्तते इति अध्यक्ष घिमिरे असूचयत्। प्रत्युत्तरे अर्थमन्त्रिणा खनालेन निर्यातक्षेत्रे दृष्टानाम् समस्यानाम् समाधानाय आवश्यक प्रक्रियामग्रे वर्धयितुम् प्रतिबद्धता व्यक्तासीत्। मधेस प्रदेशस्य मुख्यमन्त्रिणा सरोज कुमार यादवेन मधेस प्रदेश सभायाम् विश्वासस्य मतम् ग्रहीतुम् आवश्यक आवश्यक व्यवस्थायै पत्रम प्रेषितमस्ति। सर्वोच्च न्यायालयस्य निर्णयस्य अनुसारेण विश्वासस्य मतं ग्रहीतुम् अद्य द्विवादनाय आवश्यक व्यवस्थां विधातुं प्रदेश सभा सचिवालये ह्य पत्रं पञ्जीकारितम् अस्ति इति मुख्यमन्त्रिणा यादवेन आयोजिते पत्रकार सम्मेलने पूर्वे द्युः संसूचितम् वर्तते। पत्रकार सम्मेलने मुख्यमन्त्री यादव प्रदेश सभायाम् आत्मना सहकार्यं विदद्भ्य सहयात्री दलेभ्य एव आत्मने विश्वासस्य मतं प्राप्स्यते इति विश्वासम् अभिव्यनक। अधिकार दुरुपयोगानुसन्धानायोगेन विस्तृत काय विमानस्य क्रयणस्य प्रकरणे विशेष न्यायालयस्य निर्णयस्य विरूद्धे सर्वोच्च न्यायालये पुनरावेदनं पञ्जीकारितं वर्तते। न्यायिक प्रकरणेऽस्मिन् कतिपय जना एव दोषिणो निर्धारिताः, बहुभ्यो जनेभ्य स्पष्टीकरणं प्रदत्तं चास्तीति उक्त्वा विशेष न्यायालयस्य निर्णयस्य विरूद्धे ह्य आयोगेन सर्वोच्च न्यायालये पुनरावेदनस्य निवेदनं प्रस्तुतम् अस्तीति आयोगस्य प्रवक्ता राजेन्द्र कुमार पौडेलः असूचयत। विशेष न्यायालयस्य निर्णय त्रुटिपूर्णोऽस्तीति ज्ञापयता आयोगेन निर्णयं निरस्तीकृत्य सर्वे दोषिणो जना दण्डनीया इति याचनया ह्य पुनरावेदन पत्रं पञ्जीकारितम् अस्तीति प्रवक्त्रा पौडेलेन प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। विस्तृतकाय विमानस्य क्रयणस्य प्रकरणे विशेष न्यायालयेन तात्कालिक पर्यटन मन्त्रिणा जीवन कुमार साई इत्यनेन सहितेभ्य नेपाल वायुसेवा निगम संचालक समितेः पदाधिकारीभ्य अन्येभ्य चतुर्दश कर्मचारीभ्यश्च स्पष्टीकरणं प्रदत्तम् आसीच्यत एकादश जना दोषिणो निर्धारिताः आसन्। स्वास्थ्य जनसंख्या मन्त्रालयेन आराष्टं विद्यमानानां रुग्णवाहकयानानां शववाहकयानानां च विवरणम् अनिवार्यरूपेण प्रस्तोतुं सूचना प्रकाशिता वर्तते। मन्त्रालयेन ह्य सूचनां प्रकाश्य सेवामार्ग शीर्षमासस्य एकविंशं दिवसं यावत् अनिवार्यरूपेण मन्त्रालयस्य ईमेल सञ्जाले विवरणं प्रदातुं सम्बद्धपक्षाः अनुरुद्धाः वर्तन्ते। नेकपा एमाले दलस्य एकादशतमे राष्ट्रिय महाधिवेशने वैदेशिकानां राजनीतिक दलानां प्रतिनिधयः सहभागिनो न भविष्यन्ति। स्वल्पेव समये महाधिवेशनस्य सम्पादनीयत्वात् अस्मिन् महाधिवेशने वैदेशिकानां भ्रातृत्व मैत्रीयुतानि राजनीतिक दलानि न आह्वयितुं निर्णीतमस्तीति एमाले दलस्य उपमहासचिव प्रदीप ग्यवाली असूचयत। इतः पूर्वम् एमाले दलेन चीन भारत भियतनाम प्रवृत्तिनां देशानां राजनीतिक दलानि महाधिवेशनस्य उद्घाटन सत्रे अतिथिरूपेण आहूयन्ते स्म। नेकपा एमाले दलस्य महाधिवेशनम् अशैव मार्गशीर्षमासस्य सप्तविंशात् दिवसात् एकोन त्रिंशं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यते। नेपाली कांग्रेस दलेन प्रतिनिधिसभाया राष्ट्रिय सभायाश्च सदस्य पदस्य कृते प्रत्याशितायै नाम परामृष्टुं दलस्य स्थानीय स्तर निकायेभ्य परिपत्रं विहितमस्ति। दलेन प्रतिनिधिसभाया राष्ट्रिय सभायाश्च निर्वाचने प्रदेशसभानां जनपदानां प्रतिनिधिसभाया प्रदेशसभानां क्षेत्रीय कार्य समितिनां च अन्तर्गत निकायेभ्य नाम परामृष्टुं परिपत्रं विहितं वर्तते। इति समाचाराः।